अथ चतुर्थः पादः नौचङ्युपधाया ह्रस्वः नाग्लोपिशास्वृदिताम् भ्राजभासभाषदीपजीवमीलपीडामन्यतरस्याम् लोपः पिबतेरीच्चाभ्यासस्य तिष्ठतेरित् जिघ्रतेर्वा उरुत् नित्यञ्छन्दसि दयतेर्दिगिलिटि ऋतश्च संयोगादेर्गुणः ऋच्छत्र्युताम् श्रुद्रूप्रां ह्रस्वो वा केणः न कपि आपोऽन्यतरस्याम् रुदृशोऽङिगुणः अस्य ते स्थुक् श्वयतेरः पतः पुं वच उं शीङः सार्वधातुके गुणः अयङ्यक्ङिति उपसर्गाध्रस्व ऊहतेः एतेर्लिङि अकृत्सार्वधातुकयोर्दीर्घः च्वौ च रीङ्तः रिंशयग्लिङ्क्षु गुणोर्तिसंयोगाद्योः यङि च ईघ्राध्मोः अस्य च्वौ क्यचि च अशनायोदन्यधनाया बुभुक्षा पिपासा गर्धेषु नच्छन्दस्य पुत्रस्य दुरस्युर्द्रविणस्युर्वृषण्यतिरिषण्यति अश्वाघ स्यात् देवसुम्नयोर्यजुषि काठके कव्यध्वरपृतनस्यर्चिलोपः द्यतिस्यति मास्थामित्तिकिति शाच्छोरन्यतरस्याम् दधातेर्हि जहातेश्चक्त्वि विभाषाच्छन्दसि सुधितवसुधितनेमधितधिष्वधिषीय च दोदद्घोः अच उपसर्गात्तः अपोभि सस्यार्धधातुके तासस्त्योर्लोपः रिच ह एति यीवर्णयोर्दीधीवेव्योः सनिमीमाघुरभलभशकपतपदाम च इस् आज्ञप्युधामीत् दम्भ इच्च मुचोकर्मकस्य गुणो वा अत्र लोपोऽभ्यासस्य ह्रस्वः हलादिशेषः शर्पूर्वाह्खयः कुहोश्चुः न कवतेर्यङि कृशेश्छन्दसि दाधर्तिदर्धर्तिदर्धर्षि बोभूतु ते तिक्ते लर्ष्यापनीफणत् संसनिष्यदत् करिक्रत् कनिक्रदत् भरिभ्रद्धविध्वतो दविद्युतत् तरित्रतः सरीसृपतं वरीवृजन्मर्मृज्यागनीगन्तीति च उरत् द्युतिस्वाप्योस्सम्प्रसारणम् व्यथो लिटि दीर्घ इणः किति अत आदेः तस्मान्नुड्विहलः अश्नोतेश्च भवतेरः ससूवेति निगमे निजां त्रयाणां गुणश्लौ भ्रुयामित् अर्तिपिपर्त्योश्च बहुलञ्छन्दसि सन्न्यतः ओः पुयञ्जपरे स्रवति शृणोति द्रवति प्रवति प्लवति च्यवतीनां वा गुणोऽयङ्लुकोः दीर्घोकितः नीग्वञ्चुस्रंसु ध्वंसु भ्रंसु कसपतपदस्कन्दाम् नुगतोऽनुनासिकान्तस्य जप जभ दह दश भञ्जपशाञ्च चरफलोश्च उत्परस्यातः तिच रीगृदुपधस्य च रुग्रिकौ च लुकि ऋतश्च सन्वल्लघुनिचङ्परेण ग्लोपे दीर्घो लघोः अत्स्मृदृत्वरप्रथम्रदस्तृस्पशाम् विभाषावेष्टिचेष्ट्योः ईच गणः नौशीगश्चाच्छोषर्पूर्वास्रवति सप्तदश इति चतुर्थः पादः इति सप्तमोऽध्यायः।